समावृतम् पुष्पदीकृतवारिषम् पुच्छमस्तकमीश्वरम् ज्ञानमुद्रां च विभ्राणम् सर्वालङ्कारभूषितम् हनुमान् श्रीप्रदो वायु पुत्रो रुद्रो नभुजरः अमृत्युर्वीरवीरश्च रामवासो जनाशयः धनदो निर्गुणोकायो वीरो निधिपतिर्मुनिः विङ्गाक्षो वरदो वाग्मी सीताशोकविनाशनः शिवः सर्वः परो व्यक्तो व्यक्ताव्यक्तो रसाधरः पिङ्गकेशः पिङ्गरोमा श्रुतिगम्यः सनातनः अनादिर्भगवान् देवो विश्वहेतुर्निरामयः आरोग्यकर्ता विश्वेषु विश्वनाथो हरीश्वरः भर्गो रामो रामभक्त कल्याणप्रकृतिः स्थिरः विश्वम्भरो विश्वमूर्तिर्विश्वाकारोऽथ विश्वपः विश्वात्मा विश्वसेव्योऽथ विश्वो विश्वहरो रविः विश्वचेष्टो विश्वगम्यो विश्वधेयः कलाधरः कवङ्गमः कपिश्रेष्ठो ज्येष्ठो वैद्यो वरीचरः बालो वृद्धो युवा तत्त्वं तत्त्वगम्यः सखायजः अञ्जनासूनुर्व्यग्रो ग्रामख्यातो धराधरः भूर्भुवस्वर्महर्लोको जनलोकस्तपो व्ययः सत्यम् ओङ्कारगम्यश्च प्रणवो व्यापकोमलः शिवधर्म प्रतिष्ठाता रामेष्टः फाल्गुनप्रियः पुष्पदीकृतवारिषः पूर्णकामो धरापतिः रक्षोघ्नः पुण्डरीकाक्ष शरणागत वत्सलः जानकी प्राणदाता च रक्षः प्राणापहारकः पूर्णः सत्यपीतवासा दिवाकर समप्रभः देवोद्यानविहारी च देवता भयभञ्जनः भक्तोदयो भक्तलब्धो भक्तपालन तत्परः द्रोणहर्ता शक्तिनेता शक्तिराक्षसमारकः अक्षघ्नो रामदूतश्च शाकिनी जीवहारकः उपकारः कारातिर्गर्वपर्वतमर्दनः हेतुस्त्वहेतुप्रांशुश्च विश्वभर्ता जगद्गुरुः जगन्नेता जगन्नाथो जगदीशो जनेश्वरः जगद्धितो हरिश्रीशो गरुडस्मये भञ्जनः पार्थो ध्वजो वायुपुत्रो मितपुच्छो मितविक्रमः ब्रह्मपुच्छः परब्रह्म पुच्छो रामेष्टकारकः सुग्रीवादियुतो ज्ञानी वानरो वानरेश्वरः कल्पस्थायी चिरञ्जीवी तपनश्च सदाशिवः सन्नतः सद्गतिर्भुक्ति मुक्तिदः कीर्तिदायकः कीर्तिः कीर्तिप्रदश्चैव समुद्रः श्रीपदः शिवः भक्तोदयो भक्तगम्यो भक्तभाग्यप्रदायकः उदधिक्रमणो देवः संसारभयनाशनः वादिबन्धनकृद्विश्व जेता विश्वप्रतिष्ठितः लङ्कारिः कालपुरुषो लङ्केश गृहभञ्जनः भूतावासो वासुदेवो वसुस्त्री भुवनेश्वरः श्रीरामरूपः कृष्णस्तु लङ्काप्रासादभञ्जकः कृष्णः कृष्णस्तुतः शान्तः शान्तिदो विश्वपावनः विश्वभोक्ताथमारघ्नो ब्रह्मचारी जितेन्द्रियः भूतभूल अंगुली माली अंगुलाहत राक्षस समीर तनुजो वीरो वीर तारो जय प्रद जगन मंगल दह पुण्य पुण्य श्रवण कीर्तन पुण्य कीर्ति ही पुण्य गतिर जगत पावन पावन देवेशो जित मारोथ राम भक्ति विधायक ध्याता ध्येयो लय साक्षी चेता चैतन्य विग्रह ज्ञान दह प्राणो जगत प्राण समीरण विभीषण प्रिय शूर पिप्पलाशय सिद्धिदह सिद्ध सिद्धाश्रय कालो महोक्ष काल जातक लंकेश निधनस्थायी लंका दाहक ईश्वर चंद्र सूर्याग्नि नेत्रश्च कालाग्निः प्रलयांतक कपिल कपिश पुण्यराशिर्द्वादश राशिगह सर्वाशयो प्रमेयात्मा देवत्यादि निवारकः लक्ष्मण प्राणदाता च सीता जीवन हेतुकः कामधेयो हृषीकेशो विष्णु भक्तो जटी बली देवार दर्पह होता आता करता जगत प्रभु नगर ग्राम पालश्च शुद्धो बुद्धो निरत्रप निरंजनो निर्विकल्पो गुणातीतो भयंकर हनुमांश्च दुराराध्यस्तपः साधु महेश्वर जानकी धनशोको तापहर्ता परात्परः वाङ्मयः सदा सद्रूपः तारणं प्रकृतिः परः भाग्यदो निर्मलो नेता उच्छलंका विदाहकः उच्छबद्ध यातु धान रिपुप्रियः छायापहारि भूतेषु लोकेशः सद्गतिप्रदः लवंगमेश्वरः क्रोधः क्रोधसंरक्तलोचनः सौम्यो गुरुः काव्यकर्ता भक्तानां च वरप्रदः भक्तानुकम्पि विश्वेश गुरुभूतः पुरन्दरः क्रोधहर्ता तमोहर्ता भक्ताभयवरप्रदः निर्विभावसुरभास्वान् यमो निरृतिरेव च वरुणो वायुगतिमान् वायुः कौबेर ईश्वर रविश्चन्द्र कुजः सौम्यो गुरुः काव्यः शनिश्चरः राहुः केतुर्मरुद्धोता ताता हर्ता समीरजः मश्कीकृत देवारिर्दैत्यारिर्मधुसूदनः कामः कपिः कामपालः कपिलो विश्वजीवनः भागीरथी पदाम्भोजः सेतुबन्ध विशारदः स्वाहा स्वधाः विकव्यम् अव्यवाह प्रकाशकः स्वप्रकाशो महावीरो लघुरूर्जित विक्रमः उद्दीनोद्दीन गतिमान् सद्गतिः पुरुषोत्तमः जगदात्मा जगद्योनिर्जगदन्तो ह्यनन्तकः विपाप्मा निष्कलङ्कोऽथ महान् महदहङ्कृतिः त्वं वायुः पृथिवी चापो वह्निर्दिक्पाल एव च क्षेत्रज्ञः क्षेत्रहर्ता च पल्वलीकृतसागरः हिरण्मयः पुराणश्च केचरो भूचरो मरः हिरण्यगर्वसूत्रात्मा राजराजो विशाम्पतिः वेदान्तवेद्य उद्गीथो वेदवेदाङ्गपारगः प्रतिग्रामस्थितिः सद्यः कोटिदाता गुणाकरः नक्षत्रमालिभूतात्मा सुरभि कल्पपादप चिंतामणिर्गुणनिधि प्रजाधारोह्यनुत्तम पुण्यश्लोक पुराराथे ज्योतिष्मान् शर्वरीपति किलकिलाराव संत्रस्त भूत प्रेत पिशाचक ऋणत्रय हर सूक्ष्म स्थूल सर्वगति पुमान अपस्मार हर स्मृता श्रुतिर्गाथा स्मृतिर्मनु स्वर्ग द्वारम प्रजा द्वारम मोक्षु द्वारम यतीश्वरः नाद रूपः परम ब्रह्म 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 पुरातनः एको नेको जनः शुक्लः स्वयं ज्योतिरनाकुलः ज्योतिर्ज्योतिर्नादिश्च सात्विको राजसत्तमः तमो हरता निरालम्बो निराकारो गुणाकरः गुणाश्रयो गुणमयो बृहत्कर्मा बृहद्यशाः बृहत्पादो बृहन्मूर्धा बृहत्स्वनः बृहत्कर्णो बृहन्नासो बृहद्बाहो बृहत्तनुः बृहज्जानुर्बृहत्कार्यो बृहत्पुच्छो बृहत्करः बृहद्गतिर्बृहत्सेव्यो बृहल्लोकफलप्रदः शक्तिर्बृहद्वाञ्छा फलदो बृहदीश्वरः बृहल्लोकनुतो द्रष्टा विद्यादात जगद्गुरुः देवाचार्यः सत्यवादी ब्रह्मवादी कलाधरः सप्तपातालगामी च मलयाचल संश्रयः उत्तराशास्थितः श्रीदो दिव्यौषधि वशः खगः शाखा मृगः कपीन्द्रोऽथ पुराण श्रुतिचञ्चुरः चतुर्ब्राह्मणो योगी योगगम्यः परावरः अनादिनिधनो व्यासो वैकुण्ठः पृथ्वीपतिः अपराजितो जितारातिः सदानन्दो दयायुतः गोपालो गोपतिर्गोप्ता कलिकाल पराशरः मनोवेगी सदा योगी संसार भयनाशनः तत्त्वदाताथ तत्त्वज्ञस्तत्त्वं तत्त्वप्रकाशकः शुद्धो बुद्धो नित्यमुक्तो भक्तराजो जयद्रथः कलयो मितमायश्च मायातीतो विमत्सरः मायाभर्जित रक्षाश्च माया निर्मित विष्टपः मायाश्रयश्च निर्लेपो माया निर्वर्तकः सुखम् दुखी सुखप्रदो नागो महिषकृत संस्तवः महेश्वरः सत्यसन्धः शर्वकले पावनः सहस्रकन्धरबल विध्वंसन विचक्षणः सहस्रबाहुः सहजो द्विबाहुर्द्विभुजो मरः चतुर्भुजो दशभुजो खयग्रीवः खगाननः कपिवक्त्रः कपिपतिर्नरसिंहो महाद्युतिः भावगोवन्द्यो वराहो वायुरूपधिक् लक्ष्मणप्राणदाता च पराजितदशाननः पारिजातनिवासी च वटुर्वचनकोविदः सुरसास्य विनुर्मुक्तः सिंहिका प्राणहारकः लङ्कालङ्कारविध्वंसी वृषदंशकरूपधिक् रात्रिसञ्चारकुशलो रात्रिञ्चरग्रहाग्निदः किङ्करान्तकरो जम्बो मालिहन्तोग्ररूपधिक् आकाशचारि हरिगो मेघनाधरणोत्सुकः मेघगम्भीरनिनदो महारावणकुलान्तकः कालनेमि प्राणहारी नागरी शाप मोक्षदः रसो रसज्ञः सम्मानो रूपं चक्षुः श्रुतिर्वचः प्राणो गन्धस्पर्शनं च स्पर्शोऽहङ्कारमानगः नेति नेतीर्थगम्यश्च वैकुण्ठ भजन प्रियः गिरीशो गिरिजाकान्तो दुर्वासाः कविरङ्गिरः भृगुर्वसिष्ठश्च वनो नारदस्तुम्बरोमलः विश्वक्षेत्रो विश्वबीजो विश्वनेत्रश्च विश्वपः याजको यजमानश्च पावकः पितरस्तथा श्रद्धा बुद्धिः क्षमा तन्द्रा मन्त्रो मन्त्रयिता स्वरः राजेन्द्रो भूपतिरुण्ड पाली संसारसारथिः नित्यसम्पूर्णकामश्च भक्तकामधुगुत्तमः गणपः केशवो भ्राता पिता माता च मारुतिः सहस्रमूर्धानेकास्यः सहस्राक्ष सहस्रपाद कामजित् कामदहनः कामः कामफलप्रदः मुद्रापहारी रक्षोघ्नः पितृभार हरो बलः नखदंष्ट्रायुधो विष्णुर्भक्ता भयवरप्रदः दर्पः दर्पदो दंष्ट्रा चतुर्मूर्तिर्मूर्तिमान् महानिधिर्महाभागो महाभर्गो महर्धिदः महाकारो महायोगी महातेजा महाद्युतिः महासनो महानादो महामन्त्रो महामतिः महागमो महोदारो महादेवात्मको विभुः रौद्रकर्मा क्रूरकर्मा रत्ननाभः कृतागमः अम्भोधिलङ्घनः सिंह सत्यधर्म प्रमोदनः जितामित्रो जयः सोमो विजयो वायुनन्दनः जीवदाता सहस्रांशुर्मुकुन्दो भूरि दक्षिणः सिद्धार्थः सिद्धिदः सिद्ध सङ्कल्पः सिद्धिहेतुकः सप्तपातालचरणः सप्तऋषिगणवन्दितः सप्ताभिलङ्घनो वीरः सप्तद्वीपोरुमण्डलः सप्ताङ्गराज्यसुखदः सप्तमातृनिषेवितः सप्तस्वरलोकमुकुटः सप्तहोता स्वराश्रयः सप्तछन्दो निधिः सप्त छन्दः सप्तजनाश्रयः सप्तसामोपगीतश्च सप्तपातालसंश्रयः मेधादः कीर्तिदः शोक हारी दौर्भाग्यनाशनः सर्वरक्षाकरो गर्भ दोषः पुत्रपौत्रदः प्रतिवादे मुखस्तम्भो रुष्टचित्त प्रसादनः पराभिचार शमनो दुःखः बन्धमोक्षदः नवद्वार पुराधारो नवद्वार निकेतनः नरनारायण स्तुत्यो नवनाथ महेश्वरः मेखली कवची खड्गी राजिष्णुर्जिष्णुसारथिः बहुयोजन विस्तीर्ण पुच्छ पुच्छ हतासुरः दुष्टग्रह निहन्ता च निशाच ग्रहघातकः बालग्रह विनाशी च धर्मनेता कृपाकरः उग्रकृत्यश्चोग्रवेग उग्रनेत्रः शतक्रतुः शतमन्युनुतः स्तुत्यः स्तुतिः स्तोता महाबलः समग्रगुणशाली च व्यग्रो रक्षो विनाशकः रक्षो विदाहो ब्रह्मेशः श्रीधरो भक्तवत्सलः मेघनादो मेघरूपो मेघवृष्टिनिवारकः मेघजीवनहेतुश्च मेघश्यामः परात्मकः समीरतनयो योद्धा नृत्यविद्याविशारदः अमोघो मोघदृष्टिश्च इष्टदोरिष्टनाशनः अर्थो नर्थापहारी च समर्थो रामसेवकः अर्थिवन्द्यो सुरारातिः पुण्डरीकाक्ष आत्मभुः सङ्कर्षणो विशुद्धात्मा विद्याराशिः सुरेश्वरः अचलोद्धारको नित्यः सेतुकृद् रामसारथिः आनन्दः परमानन्दो मत्स्यः कूर्मो निराश्रयः वाराहो नारसिंहश्च वामनो जमदग्निजः रामः कृष्णः शिवो बुद्धः कल्की रामाश्रयो हरिः नन्दी भृङ्गी च चण्डी च गणेशो गणसेवितः कर्माध्यक्षः सुराध्यक्षो विश्रामो जगतीपतिः जगन्नाथः कपीशश्च सर्वावासः सदाश्रयः सुग्रीवादिस्तुतो दन्त सर्वकर्माप्लवङ्गमः नखदारितरक्षाश्च नखयुद्धविशारदः कुशलः सुधनः शेषो वासुकिस्तक्षकस्तथा स्वर्णवर्णो बलाढ्यश्च पुरुजेता घनाशनः कैवल्यरूपः कैवल्यो गरुडः पन्नगोरगः किल्किल्रावः तारातिर्गर्वपर्वतभेदनः वज्राङ्गुवज्रतंष्ट्रश्च भक्तवज्रनिवारकः नखायुधो मणिग्रीवो ज्वालामाली च भास्करः प्रौढप्रतापस्तपनो भक्ततापनिवारकः शरणं जीवनं भोक्ता नानाचेष्टो ह्यचञ्चलः स्वस्ति मां स्वस्तिदो दुःखशातनः पवनात्मजः पावनः पवनः कान्तो भक्तागः सहनो बलि मेघनाद रिपुर्मेघ नादसंहत राक्षसः क्षरोक्षरो विनीतात्मा वानरेशः सतां गतिः श्रीकण्ठ शितिकण्ठश्च सहायः सहनायकः अस्थूलस्त्वनुर्भर्गो दिव्यः संसृतिनाशनः अध्यात्मविद्यासारश्च यध्यात्मकुशलः सुधी अकल्मषः सत्यहेतु सत्यतः सत्यगोचरः सत्यगर्भः सत्यरूपः सत्यः सत्यपराक्रमः अञ्जनाप्राणलिङ्गश्च वायुवंशोद्भवः शुभः भद्ररूपो रुद्ररूपः सुरूपश्चित्ररूपधृक् मैनाकवन्दितः सूक्ष्म दर्शनो विजयो जयः क्रान्तदिङ्मण्डलो रुद्रः प्रकटीकृतविक्रमः कम्बुकण्ठः प्रसन्नात्मा विश्वनासो वृकोदरः लम्बोष्ठः कुण्डलीचित्र मालीयोगविदाम्बरः विपश्चित्कविरानन्द विग्रहो नल्पशासनः फाल्गुनी सूनुर्व्यग्रो योगात्मा योगतत्परः योगविद्योगकर्ता च योगयो निर्दिगम्बरः अकारादेहकारान्त वर्णनिर्मित विग्रह पुलूखल मुखः सिद्ध संस्तुतः प्रमथेश्वरः श्लिष्टजङ्ग श्लिष्टजानु श्लिष्टपाणिः शिखाधरः सुशर्मामित शर्मा च नारायण परायणः जिष्णुर्भविष्णुरोचिष्णुर्ग्रशिष्णुस्थाणुरेव च हरिरुद्रानुसेकोऽथ कम्पनो भूमिकम्पनः गुणप्रवाह सूत्रात्मा वीतरागस्तु तित्रियः नागकन्या भयध्वंसी रुक्मवर्णः कपालभृत् अनाकुलो भवोपायो न पायो वेदपारगः अक्षरः पुरुषो लोक नाथ ऋक्ष प्रभुर्दृढः अष्टाङ्गयोगफलभुक् सत्यसन्दः पुरुष्टुतः श्मशानस्थाननिलय प्रीतविद्रावणक्षमः पञ्चाक्षरपरः पञ्च मातृको रञ्जनध्वजः योगिनी वृन्दवन्द्यश्रीः शत्रुघ्नो नन्दविक्रमः ब्रह्मचारीन्द्रियरिपुर्हृतदण्डो दशात्मकः अप्रपञ्चः सदाचारः शूरसेनाविदारकः वृत्तः प्रमोद आनन्दः सप्तद्वीपपतिन्धरः नवद्वारपुराधारः प्रत्यग्रह सामगायकः षट्चक्रधाम स्वरलोका भयकृन्मानदो मदः सर्ववश्यकरः शक्तिर्नन्तो नन्त मङ्गलः अष्टमूर्तिर्नयोपेतो विरूपः सुरसुन्दरः धूमकेतुर्महाकेतुः सत्यकेतुर्महारथः नन्दिप्रियः स्वतन्त्रश्च मेखिलीडमुरुप्रियः लोहाङ्गः सर्वविद्धन्वि खण्डलः सर्व ईश्वरः फलभुक् फलहस्तश्च सर्वकर्मफलप्रदः धर्माध्यक्षो धर्मपालो धर्मो धर्मप्रदोरथदः पञ्चविंशन्ति तत्त्वज्ञस्तारको ब्रह्मतत्परः त्रिमार्गवसतिर्भीमः सर्वदुःखनिवर्हणः ऊर्जस्वान्निष्कलः शूली मौलिर्गर्जन्निशाचरः रक्ताम्बरधरो रक्तो रक्तमाल्यो विभूषणः वनमाली शुभाङ्गश्च श्वेतः श्वेताम्बरो युवा जयो जय परिवार सहस्रवदनः कपिः शाकिनी डाकिनी यक्ष कक्षो भूत प्रभञ्जकः सद्यो जातः कामगतिर् ज्ञानमूर्तिर्यशस्करः शम्भुतेजाः सार्वभौमो विष्णुभक्तः प्लवङ्गमः चतुर्नवति मन्त्रज्ञः कौलस्त्य बलदर्पः सर्वलक्ष्मीप्रदः श्रीमानङ्गदप्रिय ईडितः स्मृतिबीजं सुरेशानः संसारभयनाशनः उत्तमः श्रीपरिवारः श्रुतो रुद्रश्च कामधुक्